पितृन्वस्तोऽयम् महो धर्मानन्दमीषे यस्य त्रितोम् योजसा वृत्रम् विपर्वमर्दयत् स्वादोऽपितो मधोऽपितो वयम् त्वावृमहे अस्माकमपिता भव उपानः पितवाचार शिव शिवाभिरुचिभिः मयोभुरद्विषेण्यः सखा सुषेभो अद्वयाः अवर्त्येऽपि तोरसारजांसि रविष्ठीताः दिविवाता इव श्रुताः भवत्येऽपि तो ददतस्तव स्वातिष्ठतेऽपि तो स्वात्मानो रसानाम् तु विग्रीवाजिवेरते वेऽपि तो महानाम् देवानाम् मनोहिताम् अकारिचारु केतुनातपाहिमवसावधीत् यदोऽपि तो अजागन् विवस्वपर्वतानाम् अत्राजिन्नो मधो पितोरम् भक्षाजगम्याः यदपामोषधीनाम् परिम् समारिषामहे वातापेऽपि भयुद्भव यत्ते सो भगवाशिरो यवाशिरो भजामहे वातापेऽपि भयुद्भव ब्रह्मवोषधे भवपीवो वृक्कबूदारथिः वातापेऽपि भयुद्भव हन्वा भयम् पीतो वचोभिर्गावो न हव्यासूषूदिमा देवेभ्यस्त्वासधमादमस्मभ्यम् त्वासधमादम्